हल् सन्धि विषये पाठः प्रवर्तमानः अस्ति अस्माकं वर्गे, तत्र च श्चुत्वसन्धिः अपि च ष्टुत्वसन्धिः इति सन्धिद्वयम् अस्माभिः समापितमस्ति. गतवर्गे जष्ट्वसन्धेः परिचयमपि किञ्चित् वयं प्राप्तवन्तः. तर्हि इतः अग्रे सरेम. रामप्रिया भगिनी, तर्हि जष्ट्वसन्धिविधायकं सूत्रं किम् अस्ति, किं दृष्टमासीत्?
जष्ट्वसन्धिविधायकसूत्रम् अस्ति जलां जशोन्ते इति. यदा पदान्ते जलः अस्ति चेत् तस्य स्थाने जष् आदेशः भवति.
हा, समीचीनं. पदान्ते जलः स्थाने जष् आदेशः भवति. जष् इत्यस्मिन् प्रत्याहारे के के वर्णाः?
जष् जष् इत्युक्ते ज ब घ ड ध इति. जल् इत्युक्ते ज भ घ ढ ड ज भ घ ड ध. क प च ट क प च ट थ च ट थ क प ष ष स ह इत्युक्ते अननुनासिक अननुनासिक वर्गीय वर्गीय अवर्गीय अपि व्यञ्जनानि.
हा, अननुनासिकवर्गीयव्यञ्जनानि झल् तस्मिन् ष ष स ह इत्येते अन्तर्भूताः. य व नास्ति खलु, यवरल नास्ति,
यवरल नास्ति
इति झल् अस्ति. कश्चन प्रमुखप्रत्याहारः बहुषु सूत्रेषु दृश्यते, अद्यापि दृश्यते. जष् इत्युक्ते यथा भगिन्या उक्तं वर्गस्य तृतीय सदस्याः ज ब ग ड द. जष्ट्वसन्धिः इति तदर्थम् उच्यते यतोहि फलरूपेण सन्धिकार्यानन्तरं जष् इति आदेशः भवति, तदर्थमेव जष्ट्वसन्धिः इति उच्यते. झलां जशोन्ते इति एकं सूत्रं, पदान्ते एव कार्यं कुर्वाणं सूत्रमस्ति इदं. तदनन्तरम् इतोपि एकं सूत्रमस्ति, राजेन्द्रमहोदय वदति वा?
जलां जश् जशि भगिनी,
हा हा, किञ्चित् वदतु तस्य विषये.
अत्र तु जल् स्थाने जश् आदेशः भवति जशि परे, यथा यथा जशि अनन्तरम् आगच्छति तत् जल् स्थाने जश् आदेशः भवति. परन्तु अत्र पदान्ते कोऽपि विकल्पः नास्ति, तथा एव भवति.
अत्र तु सप्तमी विभक्ति कस्य अस्ति झलां झष् झषि इत्यस्मिन्?
झषि
झषि. हा, झष् प्रत्याहारे के के वर्णाः?
झष् प्रत्याहारे भगिनि चतुर्थं चतुर्थ तृतीय वर्णाः सन्ति.
हा, सत्यं. प्रत्येकं वर्गस्य चतुर्थ अपि च तृतीय व्यञ्जनानि अत्र अन्तर्भूतानि झष् इति प्रत्याहारे. तत्र शकारः तालव्यशकारः न तु मूर्धन्यः अस्मिन् सूत्रे. झलां झष् झषि इति. अपि च झष् झषि इत्युक्ते झष् वर्णेषु कश्चन आगच्छति चेत्, परे अस्ति चेत्, तदा झलां झषादेशः. झषि इति उक्तमस्ति तत्र. इत्युक्ते किं? तत्र निमित्तम् अस्ति इति, पदान्ते इति नास्ति खलु. अग्रे निमित्तं स्यात् इति. परन्तु झलां जशोन्ते इत्यत्र तत्र पदान्ते कार्यम् इत्युक्ते ततः अग्रे यत्किमपि भवतु न वा तत् कार्यं प्रवर्तते इति वार्ता. यदि कोऽपि बाधकसूत्रम् अस्ति चेत्, खरी च इत्यादिकं चर्त्वविधायकसूत्रं, तदा न स्यात्. परन्तु झलां जशोन्ते इत्यनेन पदान्ते झलः स्थाने झष् भवति यस्यां कस्यामपि दशायाम्, अग्रे व्यञ्जनं भवतु अथवा स्वरः भवतु. खर् अस्ति चेत् भिन्ना वार्ता, अथवा अनुनासिकवर्णः अस्ति चेत् भिन्ना वार्ता. परन्तु झलां झषोन्ते कार्यं करोति एव पदान्ते. अस्तु, इति आसीत् गतवर्गे जष्ट्वसन्धि इत्यस्मिन् भागे. पुस्तके पश्यन्तु कृपया, तत्र राजेन्द्रमहोदय पठितवान् इति भाति. तत्र एतानि उदाहरणानि परिशीलयत इत्यत्र प्रथमभागः राजेन्द्रमहोदयेन अवलोकितः. एतत् योगः ऋतम् इत्यत्र एतद् ऋतं तावत्पर्यन्तम् अभवत्। तर्हि बालसुब्रह्मण्य महोदय ततः अग्रे किञ्चित् परिशीलयति वा?
कुत्र महोदय?
पुस्तके
जष्ट्वसन्धि
एतानि उदाहरणानि परिशीलयत इत्यत्र आ इति द्वितीयभागः। एकनिमिष के सन्ति नूतनतया?
पुष्पा भगिनी
अनन्तरं कोऽपि अस्ति वा? अस्तु महोदय।
पृथक् योगबालाः विस्तरेण वदामि। पृथयोगालाः पृथक् बालाः इति ककारस्थाने घकारः आदेशः भवति।
पृथक् बालाः, हा समीचीनम्। अत्र केन, हा अत्र केन सूत्रेण कार्यं सञ्जातं महोदय?
अत्र जलां जशोन्ते इति सूत्रेण।
किमर्थं?
पृथक् पदान्तः,
पृथक् इति स्वयं पदमस्ति, पदान्ते झल् अस्ति ककारः खलु, तस्मात् परः कश्चन वर्णः अस्ति खलु, कः वर्णः अस्ति?
तदनन्तरं बालः बा इति जश् वर्णः अस्ति। जलां जशि
न अत्र तस्य अस्तु पृथक् बालाः इत्यत्र पृथक् इत्यस्मात् परं व्यञ्जनमस्ति बालाः इति, अपि च स च व्यञ्जनं खरी नास्ति खलु। खर् इत्युक्ते तस्मिन् के वर्णाः अन्तर्भूताः? हा इत्युक्ते वर्गस्य प्रथमसदस्यः द्वितीयसदस्यः खर् खलु, अपि च ष अत्र प प ब इति तृतीयसदस्यः। तर्हि तादृशबाधकसूत्रं किमपि नास्ति, अतः झलां जशोन्ते इति कार्यं करोति खलु। तस्मात् पूर्वं पश्यतु, एतत् योगः ऋतं, तत्र कीदृशी स्थितिः?
एतद्योग ऋतम् एतत् इति पदम् एतत् तस्मात् तकारस्थाने धकारः ऋतः इति स्वरवर्णः एव,
करीच इति बाधकसूत्रं किमपि नास्ति, परन्तु उदाहरणद्वयेन ज्ञातुं शक्नुमः यद् अस्तु पदान्ते झल् अस्तु झल् झल् भवतु इत्येव वार्ता अत्र निमित्तं खलु। तस्मात् परः स्वरः भवतु वा अथवा व्यञ्जनं भवतु वा, तेन प्राधान्यं नास्ति। यावत्पर्यन्तं बाधकसूत्रं नास्ति तावत्पर्यन्तं झलां जशोन्ते इत्यनेन जष्त्वम् इति। समीचीनम्, अस्तु अग्रे अपि परिशीलयतु।
सम्यक् योग व्यवसितः सम्यक् योगव्यवसितः अत्रापि सम्यक् इति पदं व्यवसितः करिन अपि च झल्न जश्न तस्मात् ककारस्थाने घकारः जलान् जशन्ते इति सूत्रप्रकारम्।
अत्र जश्न इत्यस्य परिशीलनमेव मास्तु, यतोहि जलां जश् जशि अपदान्ते कार्यं करोति खलु। पदान्ते अस्ति चेत् जलां जशन्ते इत्येव
करिचय नास्ति।
अस्तु अग्रिमं
यत् योग गत्वा य योगत योग ग अत्वा य योग द योग ग अत्वा अत्रापि तकारस्थाने दकारः तकारः पदं
यत् इति पदं
तकारः जल् क्षम्यतां महोदय
यत् इति पदं तकारः जल् आं समीचीनं
तकारः जल् इति कारणात् तकारस्थाने तकारः जश् जलां गत्वा ग इति कन्सिडरेशन् अवश्यं नास्ति यतोहि यत् इति पदम् इति कारणात्
समीचीनं तर्हि यद् गत्वा इति भवति सम्यक् अस्ति हा समीचीनं तर्हि अग्रे अजय महोदय
बलवत् योगः दृढं तकारस्य स्थाने दकारादेशः दकारस्य कारणेन बलवद् योगः
एकनिमिषः किम् उक्तं तकारस्य स्थाने दकारः इति समीचीनं किन्तु केन कारणेन भवता किम् उक्तम्
दकारस्य कारणेन इति उक्तं
हा तद् जलां जशोन्ते सूत्रस्य आधारेण वदतु अधः इदानीं सूत्रं किं वदति पदान्ते झलः स्थाने जशादेशः भवति तावदेव खलु तर्हि अधुना कीदृशी स्थितिः अस्ति
पदान्ते तकारः जलः अस्ति तस्य स्थाने जश् आदेशः जश् तद्वर्गीय तृतीय सदस्य तकारस्य स्थाने दकार आदेशः
इत्येव अस्ति ततः अग्रे पदान्ते झल् अस्ति चेत् तावदेव पर्याप्तं जष्त्वस्य कृते झलां जशोन्ते इत्यनेन खलु तर्हि दकारस्य कारणेन इति न वक्तव्यं भवति तत्र अपदान्ते अस्ति चेत् तदा झलां झश् झषि इति इतोपि एकं सूत्रम् अस्ति तदा परिशीलनीयं भवति अग्रे झष् इत्यस्मिन् प्रत्याहारे अन्तर्भूतः कश्चन अस्ति वा इति नो चेत् पदान्तस्य झलः झष् भवति एव अस्तु अग्रे
वृद्धियोगात् योगः धनञ्जय वृद्धियोगात् पदमस्ति पदान्ते जलः अस्ति तस्य स्थाने तकारस्य स्थाने दकारादेशः वृद्धियोगाद् धनञ्जय
हा समीचीनम् अग्रे
वृत्तिभ्रंशात् बुद्धिनाशः तस्यापि तकारस्य स्थाने दकारादेशः स्मृतिभ्रंशाद् बुद्धिनाशः केचित् योगः भीताः पदान्ते जलः स्थाने जशादेशः केचिद् भीताः इति
समीचीनम् इति जष्ट्वसन्देहे केचन कानिचन उदाहरणानि अस्तु सम्यक् आसीत् अग्रे विद्या भगिनी
एतत् योगः योनिनि अत्र एतद् इति पदमस्ति तत्र तकारस्य स्थाने दकारादेशः भवति जलां जश्वन्ते इत्यनेन एतद् योनिनि अनन्तरं यत् योगः राज्यसुखलोभेन यत् इति पदमस्ति अत्रापि तकारस्य स्थाने दकारः यद् राज्यसुखलोभेन इति भवति अनन्तरम् अप् योगः दिः अप् इति पदमस्ति पकारस्य स्थाने पवर्गस्य तृतीयवर्णः बकारः अब्दिः इति भवति जलां जश्वन्ति इत्यनेन
हा समीचीनमस्ति. ततः अग्रे किमस्ति भगिनि?
एतेषु उदाहरणेषु वर्गीयव्यञ्जनेभ्यः परतः मृदुव्यञ्जनानि सन्ति. तत्र व्यञ्जनस्य स्थाने तद्दत् वर्गीयतृतीयव्यञ्जनम् आदेशः सम्पन्नः. सर्वाणि उदाहरणानि यत् वयं दृष्टवन्तः तत्र सर्वत्र परतः मृदुव्यञ्जनानि सन्ति. मृदुव्यञ्जनानि इत्युक्ते वर्गाणां तृतीय चतुर्थ पञ्चमवर्णः अपि च हयवर.
तर्हि सः प्रत्याहारः कः? भवती यदुक्तवती तत् सत्यमेव. तर्हि प्रत्याहारत्वेन वदति चेत्
प्रत्याहारः हश् हश् इति अस्ति. हश् प्रत्याहारः मृदुव्यञ्जनानि.
हा हा, हश् प्रत्याहारे हयवरल अपि च वर्गस्य के वर्णाः?
हयवरल अपि च वर्गस्य तृतीय चतुर्थ पञ्चमवर्णाः.
समीचीनम् इति मृदुव्यञ्जनानि. अस्तु, तर्हि एतेषु उदाहरणेषु वर्गीय पदान्तवर्गीयव्यञ्जनेभ्यः मृदुव्यञ्जनानि सन्ति इति उक्तं खलु? हा, वस्तुतः स्वरः अस्ति चेदपि जशादेशः भवति इति स्मर्तव्यमस्ति. हश् हशि वस्तुतः अनुनासिकव्यञ्जनानि अपि सन्ति. पञ्चमसदस्यः इत्युक्ते
अनुनासिकवर्णः.
हा, अनुनासिकवर्णः. तर्हि अनुनासिकवर्णः परे अस्ति चेत् तत्र कार्यं भिन्नम् अस्ति. हा हा, विकल्पेन अपरः सन्धिः भवितुम् अर्हति. हा, समीचीनम् इत्येव वार्ता अस्ति, तत् स्मर्तव्यम्. एवमेव उक्तवती. अस्तु, इतः
एकः प्रश्नः. अप् इति पदमस्ति वा?
सत्यम् इति मयापि पृष्टः आसीत् अयमेव प्रश्नः. अप् इति जलम् इत्यस्मिन् अर्थे पदमस्ति इति ते उक्तवन्तः तस्मिन् दिने. अत्र मया लिखितमपि अस्ति, दिः इत्युक्ते समूहः इति उक्तं. तर्हि अप् अपि पदं, दिः अपि पदम् इति अस्ति. हा, समीचीनः प्रश्नः. तर्हि पदान्ते एव कार्यं करोति खलु जलं जशोन्ते. हा, इति अपि मम चिन्तनम् आसीत्, जलां जश्चषि अत्र अस्ति वा इति. परन्तु अप् इति पदम् इति कैश्चित् सूचितमासीत् तेषु दिनेषु. भवन्तः किमपि जानन्ति चेत् तस्य विषये वदन्तु. अप् इति प्रायः जलम् आपः इति वदन्ति खलु, तस्य प्रातिपदिकत्वेन अप् इति अस्ति इति चिन्तयामि. तर्हि तत्र पदसंज्ञा स्यात्
अप् पदमेव भगिनि, स्त्रीलिङ्गशब्दः.
हा, अस्तु, परन्तु तत्र आपः इति नित्य बहुवचनान्तशब्दः अस्ति खलु. तर्हि वदतु महोदय.
अत्र पदकोशे अप् इति पदम् इव एव दत्तमस्ति भगिनि.
अस्तु अस्तु, समीचीनं. तर्हि
भगिनि, शिराब्दिः इति वदामः तत्रापि अप्तिः.
अब्दिः, आम् आम्, तत्र सर्वत्र आगच्छति. किन्तु मम प्रश्नः अस्ति, अत्र प्रायः समासः अस्ति खलु. अपाम् अप् इत्यत्र तत्तु स्त्रीलिङ्गशब्दः सत्यं, किन्तु नित्यबहुवचनान्तः आपः इति भवति. तर्हि अपां दिः इत्युक्ते समूहः इति केनचित् उक्तमासीत्. तर्हि अपां दिः इति भवति चेत् समासे जाते प्रातिपदिकत्वेन अप् इति आगच्छति, तिष्ठति खलु. समासमये तथा भवति, प्रातिपदिकं. तर्हि अधुना प्रातिपदिकम् अस्ति, न तु पदं किल. अप्योगः दिः
इत्यत्र तत्र प्रायः अत्र झलां जश् झषि इत्येव प्रायः अत्र प्रसक्तिः अस्ति इति.
तादृशी शङ्का ममापि अस्ति. अस्तु, यत्किमपि भवतु, कथञ्चित् तत्र जष्ट्वमेव भवति. प्रातिपदिकस्य विषये प्रायः इतोपि चिन्तनीयं. तत्रैव झलां जश्चषि इत्यस्य कार्यं भवति, नो चेत् झलां जशोन्ते इत्येव. अस्तु तर्हि अग्रे सरेम. सुब्रह्मण्यमहोदय भवान् एव अग्रे.
पुस्तकात् किल भगिनि?
आमां पुस्तकात्.
एतानि उदाहरणानि परिशीलयत. स्यात् योगः जनार्दन. अत्र प्रथमम् अत्र पदान्ते तकारः अस्ति, अतः अत्र झलां झषोन्ते इत्यनेन तकारस्य दकारः भवति प्रथमं जष्ट्वसन्धिः. स्याद् योगः जनार्दन. अनन्तरम् इदानीमत्र च्युत्वसन्धेः प्रसक्तिः अपि च कार्यं. पूर्वं दकारः अस्ति, तत्तु तवर्गीयव्यञ्जनम्. अनन्तरं जकारः अस्ति, तत्तु चवर्गीयव्यञ्जनम्. अतः च्युत्वसन्धेः प्रसक्तिः स्तोः श्चुनाश्चुः इति सूत्रम्. अतः अत्र दकारस्य इदानीम् अत्र जकारः आदेशः भवति, अतः स्याज्जनार्दन इति रूपं निष्पन्नं भवति.
प्रथमं
जत्वसन्धिः, अनन्तरं श्रुत्वसन्धिः.
समीचीनमस्ति. तत्र सर्वे समीकुर्वन्तु इति सूचितमासीदपि. पुस्तके यत् प्रदर्शितं तत्तु नितरां दोषाय. प्रथमं श्चुत्वं तदनन्तरं जष्त्वम् इति प्रदर्शितं तत्र पुस्तके. यद्यपि फलं समानमेव, तथापि कार्यस्य क्रमः भिन्नः. यथा महोदयेन उक्तं, जष्त्वं प्रथमं, झलां जशोन्ते इत्यनेन, तदनन्तरं श्चुत्वं, स्तोःश्चुनाश्चुः इत्यनेन. तर्हि महोदय एतदपि वदतु, कथं ज्ञातुं शक्नुमः जष्त्वं प्रथमम् अनन्तरं श्चुत्वम् इति?
अत्र सूत्रसङ्ख्यां दृष्ट्वा वक्तुं शक्नुमः भगिनि. जष्वसन्धेः सूत्रम् अत्र अष्टमध्यायस्य द्वितीयपादे अस्ति. श्चुत्वं तु चतुर्थपादे अस्ति. अतः त्रिपाद्यां स्तः द्वे अपि द्वौ अपि. अतः प्रथमम् अत्र पूर्वसूत्रमेव कार्यं करोति. पूर्वत्रासिद्धम् इति वयं दृष्टवन्तः पूर्वमेव. तदाधारेण अत्र प्रथमं जत्वम् अनन्तरं श्रुत्वं. यदि श्रुत्वं प्रथमं भवेत् तर्हि तदनन्तरं जत्वं भवितुं न अर्हति एव पूर्वत्रासिद्धम् इत्यस्मात्.
हा, समीचीनम् इत्येव वार्ता अस्ति. जष्ट्वं प्रथमम् अनन्तरं श्रुत्वम्. अस्तु महोदय, अग्रिमम्.
अग्रिमं यत् योगः ज्ञात्वा, अत्रापि तदेव अस्ति. अत्रापि अत्र यत् पदान्ते तकारः अस्ति, अतः झलां झषोन्ते इत्यनेन अत्र तकारस्य दकारः प्रथमं, यद् योगः ज्ञात्वा, अनन्तरम् अत्र श्चुत्वं स्तोःश्चुनाश्चुः इत्यनेन दकारस्य जकारः. किमर्थं चेत् अनन्तरं ज्ञात्वा इत्यस्मिन् पदे पदस्य आदौ जकारः अस्ति, अतः स्तोःश्चुनाश्चुः इत्यनेन यज्ञात्वा इति रूपं निष्पन्नं भवति.
हा, समीचीनमस्ति. अस्तु तर्हि जष्ट्वं च श्चुत्वं युगपत् कथं कार्यं कुर्वन्ति पदनिर्माणसमये इत्यस्य उदाहरणमासीत्. अस्तु, सम्यक्. तर्हि इतः अग्रे सरेम. पुष्पा भगिनी,
एकनिमिषं. बहु अस्ति नास्ति न
नास्ति भगिनि, अग्रे पठतु.
एतेषु उदाहरणेषु श्चुत्वसन्धौ श्चुत्वसन्धौ सति जस्त्वसन्धिः सम्पन्नः. सन्धौ सति जस्त्वसन्धिः सम्पन्नः. एतानि उदाहरणानि
वस्तुतः जस्त्वसन्धिः प्रथमं, तदनन्तरं श्चुत्वसन्धिः इति महोदयेन प्रदर्शितम् अधुना.
तत्तु आपोजिट् आफ्
सत्यं,
वाट् इट् इस्.
अग्रे गच्छतु.
तत्तु जस्त्वसन्धौ सति श्चुत्वसन्धिः सम्पन्नः. अस्तु, एतानि उदाहरणानि परिशीलयत. एतत् एत योगः त एत योगः द एतद् अत्र दकारः तकारस्थाने दकारः आयाति जस्वसन्धि न तत्तु जस्वसन्धि
सत्यं जलां जशोन्ते इति
जलां जशोन्ते जलां जशोन्ते वाक् वाक् वा योगः क् वाग् अस्ति वाग् आदेशः भवति लिट् लि योगः ट् तत्र लिड् आयाति आदेशः आगच्छति एतद् तत्तु एतद् एत योगः द तकारः तत्तु श्चुत्वसन्धि न
एतत् एकनिमिष प्रथम उदाहरण उदाहरणत्रये तत्र जष्ट्वम् आगतं खलु तकारस्य दकारः झलां जशोन्ते इति सूत्रेण इतः अग्रे प्रदर्शितमस्ति यत् पदान्ते पदान्ते अवसान अवस्थायां नाम यत्र ततः अग्रे कोऽपि वर्णः नास्ति चेत् तदा विकल्पेन चत्वम् आगच्छति इति अग्रे पश्येम अद्यैव पश्येम किन्तु उदाहरणानि अधुना पठतु
तत्तु एतद् एतत् एतत् आदेशम् आयाति वाग् तु वाक् आदेशं गकारस्य ककारः आदेशः लिड् तु टकारः आदेशः तत्र
समीचीनम् अग्रे पठतु
अत्र यमनगणनां विना पदान्ते स्थितस्य वर्गीयप्रथमव्यञ्जनस्य अवसाने सति तद्वर्गीयं तृतीयं व्यञ्जनम् आदेशः सम्पन्नः तृतीयस्य च प्रथमम् अवसानं परत्र वर्ण अभावः अवसानं परत्र वर्ण अभावः
हा इत्युक्ते तत्र अवसानम् इत्युक्ते अनन्तरं परे कोऽपि वर्णः नास्ति चेत् वर्णाभावः तदेव अवसान अवस्था अवसान अवस्थायां वा अवसाने इत्यनेन सूत्रेण अद्य परिशीलयामः तदा प्रथमसदस्यस्य आदेशः भवति इति उक्तमस्ति अत्र अस्तु अस्तु हा सम्यक् अस्ति अग्रे रामप्रिया भगिनी
आं भगिनि एतानि उदाहरणानि परिशीलयत शश् योगः आननः तत्र षकारस्य स्थाने डकारादेशः षडाननः तदपि पदान्ते एव शश् योगः भ्यां तत्रापि षकारस्य पदान्ते स्थितस्य षकारस्य स्थाने डकारादेशः षड्भ्याम् इति भवति तृतीयमस्ति द्विष्योगः भ्यां पदान्ते स्थितस्य षकारस्य स्थाने डकारः द्विड्भ्याम् इति अत्र पदान्ते स्थितस्य षकारस्य स्वरे मृदुव्यञ्जने वा परे डकारादेशो सम्पन्नः
प्रथमतया षकारस्य डकारः किमर्थम् जस्त्वविधौ षकारस्य डकारः किमर्थम् आगच्छति
जल् स्थाने जश् षकारस्य डकारः
षकारः वर्गीयव्यञ्जनं नास्ति खलु मूर्धन्यं
नास्ति आम् आम् शशसः आम् जलस्थाने जल् प्रत्याहारे षकारः अपि अस्ति तस्य स्थाने जश् आदेशः भवति आम् तत्तु समीचीनं किल
हा तत्तु समीचीनं किन्तु षकारः वर्गस्य वर्गीयव्यञ्जनं नास्ति एव खलु जस्त्वसन्धौ कथं निर्णीयते तत्तत् वर्गस्य तृतीयसदस्यः इति सामान्यतया परन्तु व्याकरणे एकं सूत्रमस्ति, स्मरति वा?
स्थानेन्तरतमः इति सूत्रेण,
अनेन सूत्रेण,
अनेन सूत्रेण षकारस्य समानस्थाने डकारः इति, समानस्थाने इत्युक्ते उच्चारणस्थाने.
हा हा, जश् वर्णेषु जबगडद इत्येषु वर्णेषु षकारेण सह साम्यं कस्य वर्णस्य इति निर्णेतुं शक्यते. स्थानेन्तरतमः तदेव वदति, षकारस्य डकारः. अस्तु भगिनि, तर्हि अत्र भवती उक्तवती तद् यद् शश्योगः आननः इति, तत्र किं सूत्रं कार्यं करोति?
अत्रापि जलां जशोन्ते एव, पदस्य अन्ते अस्ति, पदान्ते, अतः जलां जशोन्ते एव.
अग्रे
अग्रे शश् इति, शश् एतानि तत्र शश् षट् भवति, विकल्पेन षड् अपि भवति, तत्रापि एकं वावसाने वा जलां जशोन्ते.
एकनिमिष, वावसाने कदा कार्यं करोति? अवसानम् इत्युक्ते किम्?
अवसानम् इत्युक्ते अन्यवर्णः नास्ति इति.
तर्हि अत्र शश्योगः अभ्याम् इत्यस्याम्,
ओ तत्र क्षम्यताम्, अहम् अग्रिम उदाहरणानि, अत्र न वा अवसाने न कार्यं करोति.
हा, अत्र वावसाने, अत्रापि जलां जशोन्ते इति
तत्र.
तर्हि वर्गे प्रश्नः आगतः आसीत्, अत्र भ्याम् इति पदं नास्ति खलु प्रत्ययः?
आम्.
दशमे पुटे पश्यन्तु, तत्र सुबन्ताः इति अपि च तिङन्ताः इत्यस्य उदाहरणे एकविंशति सुप्रत्ययाः इति अस्ति. दशमे पुटे पश्यन्ति वा?
आम् आम्.
सु औजस्, अम् औट्षस्, टाभ्यां बिस् इति अस्ति खलु. भ्याम् इति प्रत्ययः पदनिर्माणसमये आगच्छति. अस्तु, तर्हि प्रश्नः आगतः आसीत् वर्गे, विस्तररूपेण महोदयेन अत्र स्थापितं करपत्रे, अनन्तरं पठतु, किन्तु स्थूलरूपेण वदामि. अत्र शश् इति वस्तुतः प्रातिपदिकमस्ति. शश् योगः आननः इत्यत्र प्रथमतया षट् योगः षट् आननानि, षडाननानि इति कृत्वा, तदनन्तरं षडाननानि यस्य सः, सः षडाननः इति अस्ति. तत्र तु जलां जशोन्ते इत्यस्य कार्यं स्पष्टं स्यात्, पदान्ते षड् इति अस्ति, शश् इत्युक्ते तदेव, षट् इति भवति, तदनन्तरं षड् इति भवति, तदनन्तरम् आननः. किन्तु शश्योगः भ्याम् इत्यत्र भ्याम् इति प्रत्ययः अस्ति, शश् इति प्रातिपदिकमस्ति, षड्भ्याम् इति पदमस्ति, तदनन्तरं प्रक्रियानन्तरं, प्रक्रियावेलायां भ्याम् इति पद प्रत्य कुतश्चित् ध्वनिः आगच्छदस्ति, कृपया म्यूट् कुर्वन्तु. अजय् महोदय, ध्वनिः अस्ति. आम् अस्तु, शश्योगः भ्याम् इत्यत्र भ्याम् इति तादृशप्रत्ययः अस्ति, सर्वनामस्थानसंज्ञकः इति, यस्य द्वारा शश् इत्यस्य पदसंज्ञा भवति. एकं सूत्रमपि महोदयेन स्थापितं. तर्हि अन्ततो गत्वा शश्योगः आननः, शश्योगः भ्याम्, द्विश्योगः भ्याम् इत्यत्र सर्वत्र झलां जशोन्ते इत्येव कार्यं करोति इति फलितार्थः. अस्तु, तावद् ज्ञात्वा अग्रे सर्तुं शक्नुमः इति मन्ये. आं भगिनि, अग्रे अपि पठतु
भगिनि. द्विश्योगाभ्यां किल,
हा तदभवत्, तत्रापि भ्याम् इत्यस्य प्रभावेन द्विश् इत्यस्य पदसंज्ञा भवति, तदर्थं झलां जशोन्ते.
ऊ इति भागे किल एतानि उदाहरणानि परिशीलयत. शश् तत्र षट् इति भवति, विकल्पेन षडपि भवति, रूपद्वयं तत्र एव अहम् उक्तवती वा अवसाने वा जलां जशोन्ते इति कार्यं कार्येण रूपद्वयं भवति. द्विश् तत्रापि द्विट् वा द्विड् इति भवति. अत्र पदान्ते स्थितस्य षकारस्य टकारो डकारो वा सम्पन्नः.
समीचीनम्. अग्रे
अतः ञमगणनान् विना पदान्ते स्थितस्य वर्गीयव्यञ्जनस्य स्वरे मृदुव्यञ्जने हषि च परे तत्तद्वर्गीयतृतीयव्यञ्जनम् आदेशो भवति. अवसाने तु तद्वर्गीयप्रथमव्यञ्जनस्य तृतीयव्यञ्जनम् आदेशो भवति, तृतीयस्य च प्रथमम्. पदान्तस्य षकारस्य डकारो भवति, अवसाने तु टकारो डकारो वा. अस्मिन् सन्धौ वर्गीयतृतीयव्यञ्जनानि आदेशः भवन्ति, तेषां च ग्रहणं जष् प्रत्याहारे भवति, प्रत्याहारेण भवति, अतः जष्ट्वसन्धि इति नाम.
समीचीनं. तर्हि एतावत् पर्यन्तं यत्किमपि अस्माभिः दृष्टं तस्य सारांशः अयमेव. अत्र सम्यक्तया उक्तमस्ति, पश्यतु. ञमगणनान् विना पदान्ते स्थितस्य वर्गीयव्यञ्जनस्य हषि परे इति उक्तम्. एकनिमिषः, नाय्स् अस्ति. अस्तु, हषि इति आगच्छति, परन्तु हषि इत्यस्मिन् ञमगणन इति अस्ति. तर्हि अनुनासिकव्यञ्जनानि विहाय हषि परे अथवा स्वरे परे जष्त्वादेशः, अपि च अवसानावस्थायां तु चरादेशः अपि भवति इति वार्ता अस्ति. अस्तु, राजेन्द्रमहोदय अग्रे.
आम् आं भगिनि, रिक् पुस्तकात् भगिनि,
पुस्तकात्
रिक्तस्थानानि पूरयत् वाक् योगभूषणम्. अत्र पदान्ते ककारः अस्ति, तत् स्थाने जश् आदेशः भवति, जलां जशन्ते, तत्र वाग्भूषणं भवति. पृथक् योग भवति, अत्रापि ककारः पदान्ते अस्ति, ककारस्थाने जश् आदेशः पृथग् 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 भवति, तत् निष्पन्नं भवति. मरुत् योग वहति, तत् अत्र पदान्ते तकारस्य धकारः आदेशः भवति, यश् आदेशः भवति, मरुद् वहति, निष्पन्नं भवति. अपश्यत् योग देवदेवस्य, अत्र तथैव तत्र पदान्ते तकारस्य धकारः भवति, अपश्यत् देवदेवस्य, निष्पन्नं भवति. दिक् योग अम्बरः, अत्रापि अत्र ककारस्य पदान्ते ककारस्य जस् आदेशः भवति, दिग् अम्बरः अम्बरः.
हा महोदय, अत्र मम एव कश्चन प्रश्नः अस्ति, भवन्तः जानन्ति चेत् वदन्तु. दिग् अपि च अम्बरः, तत्र समासपदं समस्तपदमिति भाति खलु, दिग् एव अम्बरः, दिगम्बरः इति. तथा चेत् दिक् अपि प्रातिपदिकत्वेन तत्र आगच्छति इति चेत् छलां जशोन्ते कथं कार्यं कुर्यात् इति मम मनसि आगतः प्रश्नः. किमपि चर्चितमासीत् वा, कोऽपि स्मरति वा, सुब्रह्मण्यमहोदय अथवा?
न भगिनि, तथा न चर्चितवन्तः तस्मिन् समये, परन्तु यथा पूर्वमेव दृष्टवन्तः किल भगिनि, अप् योगः धिः तथा एव अत्रापि भवति इति अहं चिन्तयामि.
हा, तत्र तत्र तु अप्योगः धीः इत्यत्र झलां झष् झषि सूत्रमासीत् कार्यं कर्तुं, खलु? अत्र अत्र पश्यतु, अम्बरः इति स्वरः अस्ति, जश्वर्णः नास्ति, तदर्थं मम प्रश्नः.
आं भगिनि, समीचीनमेव, अकारः स्वरः अस्ति इदानीम् अत्र.
तर्हि झलां झष् झषि इत्यनेन तु न भवति, भवति चेत् अपि च भवति, झष्त्वं भवति एव, झलां झषौन्ते इत्यनेन एव स्यात् इत्युक्ते किं, दिग् इति पदम् इति भाति खलु,
केनचित् कारणेन पदं पदसंज्ञा भवति वा इति प्रश्नः इदानीम्.
सत्यम्. अस्तु,
समीचीनप्रश्नः भगिनि, अहमपि न जानामि.
अस्तु, पश्येम तर्हि, किन्तु अन्ततो गत्वा जस्त्वं भवति एव, दिगम्बरः इति.
तत्तु वयं सर्वे श्रुतवन्तः एव, दिगम्बरः एव लिखितमस्ति सर्वत्र.
अस्तु अग्रे सरेम. राजेन्द्रमहोदय तर्हि अग्रे.
अग्रे अस्ति व्याद्र ना दुःपरतम्. चिन्तयामि व्यात् योग ऋणात् उपरतं भवति. अत्र अत्र व्यात् तकारस्य स्थाने तकारः आदेशः भवति. जलां जशन्ते तत् ऋणात् रणात् अपि तत्र तकारस्य दकार आदेशः भवति. जलां जशन्ते उपरतं तत्र आगच्छति व्याद्रणात्.
अस्मिन् अस्मिन् उदाहरणे पश्यन्तु तत्र भयात् अनन्तरं व्यञ्जनम् अस्ति, अस्तु, तदापि जष्ट्वं भवति. पुनः रणात् इत्यस्मात् परं स्वरः अस्ति उपरतम् उ इति, तत्रापि जष्ट्वं भवति इत्यस्य उदाहरणम्. अस्तु महोदय अग्रे.
जगत् गुरुः, जगत् योग गुरुः, तत्र तकारस्य स्थाने तकार आदेशः भवति, जष्ट्वं भवति. जगद्गुरुः तत्र निष्पन्नं भवति.
अत्र किन्तु किं सूत्रं कार्यं कुर्यात्?
जलां जशन्ते जगत् पदमस्ति, तत् पदान्ते पदान्ते तकारस्य दकारः आदेशः भवति.
किन्तु अहं चिन्तयामि तत्र जलां जश्चषि कार्यं कुर्यात् इति, खलु? जगतः गुरुः जगद्गुरुः इति समासे जाते, प्रायः तथा स्यात् इति मम चिन्तनम्. अस्तु अग्रे सरतु, यत्किमपि भवतु पृच्छेम अनन्तरम्.
आं भगिनि, तस्मात् दुध्यस्व, दुध्यस्व तत्र अपि तकारस्थाने यश् आदेशः, तस्मात् दुध्यस्व युध्यस्व 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 तस्मात् युध्यस्व तस्माद् युध्यस्व निष्पन्नं भवति. मधुलिट् तत् मधुलिट् मधुलिट् डायते, तत्र टकारस्थाने डकार आदेशः भवति. मधुलिट् डायते डायते तत्र जलां जशन्ते कार्यं करोति तत्. वेदान्त वेदान्त
वेदान्तकृत्
वेदान्तकृत् अस्तु अस्तु वेदान्त वेदान्तकृत् वेदवित् एव तत्र अपि वेदान्तकृत् तकारस्य स्थाने दकार आदेशः भवति. जलां जशन्ते वेदवित् एव तत्र अपि तकारस्थाने दकार आदेशः भवति. जलां जशन्ते तत्र वेदान्तकृद्दविदेव
वेदान्तकृत् इत्यस्य तकारस्य दकारः, पुनः वेदवित् इत्यस्य तकारस्य दकारः. अस्तु समीचीनमस्ति. तर्हि
भगिनि तत्र दिक् दिक् योगः अम्बरः, तत्र दिक् प्रातिपदिकं दिश् अस्ति, शकारात् स्त्रीलिङ्ग्. दिक् इति प्रथमाविभक्ति अस्ति किल, प्रथमाविभक्तौ.
हा भगिनी, इति भवती यद् वदति तत् सत्यमेव. प्रथमाविभक्तौ शकारस्य ककारः जायते, तत्रापि एकं सूत्रमस्ति महोदयेन उक्तमपि इति भाति. अस्मिन् एव करपत्रे व्रश्च ब्रश्च इत्यनेन शकारस्य शकारः, तदनन्तरं प्रायः षडोः कसि इत्यनेन ककारः. प्रथमाविभक्त्याः निष्पन्नार्थं तथा भवति इति सत्यं, दिक् इति अस्ति. परन्तु शब्दं दृष्ट्वा, दिगम्बरः इति शब्दं दृष्ट्वा मम ऊहा आसीत् यत् दिग् एव अम्बरः यस्य, सः दिगम्बरः इति, खलु? तर्हि तदा दिग् एव अम्बरः इति व्यस्तप्रयोगे प्रथमाविभक्ति इति सत्यम्, इति तु सत्यं. परन्तु यदा समासपदं भवति समासे प्रातिपदिकमेव गच्छति, खलु? इत्युक्ते दशरथस्य पुत्रः इति दशरथपुत्रः भवति, दशरथ इति प्रातिपदिकं, तर्हि अहं चिन्तयामि तत्र दिक् इति प्रातिपदिकत्वेन एव गच्छति इति. यद्यपि प्रथमा विभक्ति इति भाति तथापि प्रातिपदिकत्वेन शब्दे अन्तर्गतः भवति इति मम ऊहा आसीत्.
प्रातिपदिक इति चेत् तत्र दिश् इति भवति किल?
हा सत्यं सत्यं, यथा मया उक्तं
सन्धिभूत्वा अनन्तरं दिक् इति भवति इति
सत्यम् इति किमपि स्यात् तथा.
अस्तु अस्तु,
उदाहरणत्वेन एतादृशः इति वदामः खलु, तत्रापि एतादृश इति अस्ति इति भूत्वा एतादृक् इति किमपि भवति इति अस्ति अथवा हा तथा किमपि अस्ति, किन्तु दिक् इत्यस्य परिवर्तनं कथञ्चित् जातं शकारस्य स्थाने ककारः इति भूत्वा अस्ति प्रातिपदिकत्वेन इति अहं चिन्तयामि.
परन्तु दिक् पदमपि भवति किल
प्रथमाविभक्त्यां? सत्यं प्रथमाविभक्त्यां दिक् एव.
अस्तु
अस्तु, सम्यक्. तर्हि अग्रे सरेम. सुब्रह्मण्य बालसुब्रह्मण्यं महोदय अग्रे अग्रिमसङ्गीतं.
जगद्गुरुः इति समस्तपदं वा? जगद्गुरुः
इति मम चिन्तनं महोदय, जगतः गुरुः इति तथा खलु, नो चेत् कथं जगद्गुरुः इति निष्पन्नं भवति? तत्रापि जगत् इति प्रातिपदिकत्वेन गच्छति इति मम चिन्तनं. अस्तु महोदय अग्रे.
सत्त्वसन्धि एतानि उदाहरणानि परिशील्यते. षड् योगकोणः षड्कोणः षट् कोणः षट्कोणः ड इति जलि वर्णः, कोणः ख इति खरि वर्णः, तस्मात् जलि डकारस्थाने छर् आदेशः भवति. प्रथमशब्दस्य टकारः षट्कोणः इति.
अग्रे
कोणः इति, कोणः इति मूर्धन्यनकार वा? कोणः
प्रायः समीचीनमेव महोदय. अन्ततो गत्वा षड् योगः कोणः इत्यत्र पदं जायते खलु, तदा प्रायः षट्कोणः इति भवेत् इति भवान् चिन्तयति खलु? इति सत्यं सत्यं हा सत्यं, कोणः प्रायः स्वयमेव तिष्ठति चेत् तथा स्यात्, किन्तु पदनिर्माण अथवा कोणः इति नकारान्त आम् नकारः एव अस्ति, कोणः इति स्यात् सत्यं, नकारः स्यात् तत्र.
दिग् योगपालः दिगपालः दिक्पालः, अत्रैव पालः पा करि वर्णः, ग इति जल्वर्णः, तस्मात् करि च इति सूत्रेण घकारस्थाने छर्त्वं खकारः प्रथमसदस्यवर्णः खकारः दिक् पालः इति.
अग्रे
अस्मद् पुत्रः अस्मद् पुत्रः, अत्रापि पु इति कर्वर्णः, घकारः जल्वर्णः, तस्मात् करि च सूत्रेण दकारस्थाने छर्त्वं तकारः प्रथमसदस्य तकारः अस्मत् पुत्रः. एवमेव अनुष्टुब् छन्दः, छन्दः करि छ करि वर्णः, अनुष्टुब् अनुष्टुब् जल्वर्णः.
हा समीचीनं, भकारः जल्वर्णः, चकारः खर्वर्णः,
करिवर्णः करि च इति सूत्रेण छर्तं भवति अनुष्टुब् जलां जस् जसि जलां जल् जस् न न परिचय एव.
चिन्तनं समीचीनं महोदय. जलां जस् जसि इति कार्यं करोति वा अत्र इति परिशीलितं खलु भवता? हा चकारः झषि अस्ति वा? नास्ति खलु, खरि एव अस्ति.
तस्मादेव.
अस्तु, तर्हि एतेषु उदाहरणेषु प्रथमपदस्य अन्तिमवर्णः कः आसीत्?
तृतीय चतुर्थ
झल् वर्णः खलु. हा, प्रथमपदस्य प्रथमभागस्य अन्तिमवर्णः झल् आसीत्. तदनन्तरं द्वितीय
प्रथमसदस्यः अथवा द्वितीयसदस्यवर्णः इति द्वितीयसदस्य
इत्युक्ते खर् वर्णः अस्ति खलु.
खर्वर्णः, सर्वे अपि खर्वर्णः.
हा, यथा अस्मद्योगः पुत्रः पकारः खर्वर्णः, अतः चर्त्वसन्धिः इति उच्यते. अत्र सर्वत्र झलः स्थाने वर्गस्य प्रथमसदस्यः आगतः. अस्तु, अग्रे पठतु.
अतः ञमङणना विना वर्गीयव्यञ्जनस्य कर्कसव्यञ्जने खरि परे तद्वर्गीयप्रथमव्यञ्जनं छर् आदेशः भवति. अस्मिन् सन्धौ छर् वर्णाः आदेशः भवन्ति, अतः छर्तसन्धिः इति नाम.
किम् अभवत् अत्र?
अत्र ञमङणनं विना वर्गीयव्यञ्जन कर्कषव्यञ्जनः ख परे.
एतेषां कथनशैली भ्रमजनकमेव. ञमणान् विना वर्गीयव्यञ्जनम् इत्युक्ते कः प्रत्याहारः महोदय?
ञमङणनं विना वर्गीयव्यञ्जनम् इति
झल् एव.
झल् झल्,
हा, झल् अपि च वर्गीयव्यञ्जनम् अपि च यवरल त्यक्त्वा झल् अस्ति. झल् परतः
कर्कसव्यञ्जने कर्कसव्यञ्जने करी च करी
खरि, हा, खरि परे
द्वितीय वर्णः.
करीपरे
करीपरे तद् वर्गीयप्रथमव्यञ्जनं वर्गीयप्रथम वर्गीय छर् कप छट छर्.
हा, छर् छर् इत्युक्ते छट त कप शश सर् इति आदेशः भवति. समीचीनम्. इति चर्त्वसन्धिः. यथा सामान्यं फलं दृष्ट्वा इत्युक्ते आदेशरूपेण कः वर्णः आगच्छति इति दृष्ट्वा सन्धेः नामकरणमस्ति खलु. हा, अत्र तु चरादेशः इति कृत्वा चर्त्वसन्धिः इति उच्यते. सम्यक्. तर्हि अधुना अजय् महोदय अस्ति वा? तर्हि महोदय, चर्त्वसन्धिविधायकसूत्रं पठतु करपत्रात्.
खरि च जलः स्थाने चरादेशो भवति खरि परे. खरि सप्तम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रं. जलां झसि इत्यस्मात् जलाम् इत्यस्य अनुवृत्तिः. अभ्यासे चर्च इत्यस्मात् चर्च इत्यस्य अनुवृत्तिः. तयोर्वावचि संहितायाम् इत्यस्मात् संहिताम् इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं. झलां च खरि च संहितायां.
झलां चर् इति अस्ति, तत्र फाण्ट् समीचीनं नास्ति. झलां चर् इति अस्ति.
झलां चर् खरि च संहितायाम्.
सूत्रं किं वदति महोदय?
जलः स्थाने चर् आदेशो भवति खरि परे. सो इति अहं वयं दृष्टवन्तं.
झल् प्रत्याहार झल् इत्युक्ते
झल् इत्युक्ते यमगणनं विना वर्गीय प्रथम द्वितीय तृतीय चतुर्थसदस्याः षषसाः
बहु समीचीनं समीचीनमस्ति
तस्य स्थाने चर् चर् इत्युक्ते वर्गीयप्रथमसदस्याः कचटतप शससाः अपि इति चिन्तयामि
सत्यं सत्यं बहु समीचीनं महोदय चर् इत्युक्ते प्रथमसदस्यः अपि च शशस इति अस्तु
इति आदेशो भवति यदि खरि परे खरि इत्युक्ते वर्गीयप्रथमद्वितीयसदस्याः इति चिन्तयामि
हा सम्यक् इति एव अस्ति सूत्रम् अनुवृत्तिसहितसूत्रं पठतु भवता सर्वम् उक्तमेव अनुवृत्तिसहितसूत्रं
जलां चर् हरितसंहितायां
हा इति सूत्रस्य फलितार्थः जलः स्थाने जलाम् इति षष्ठी बहुवचनमस्ति खलु जलः इति षष्ठी एकवचनं झलाम् इत्युक्ते षष्ठी बहुवचनं झलां स्थाने चर् खरि च संहितायाम् इत्युक्ते तत्तत् वर्गस्य प्रथमसदस्यः आदेशरूपेण आगच्छति इति अपि च शशस इति अपि अस्ति खलु झलि हा तर्हि झल् शशस स्थाने चर् इत्युक्ते कः आदेशः भवति
अहं चिन्तयामि तदेव
हा बहु सम्यक् हा शशस इति झलि अपि अस्ति अपि च खरि अपि अस्ति चरि अपि अस्ति तर्हि चरादेशः इत्युक्ते शशस स्थाने शशस एव आगच्छति इति अस्तु अग्रे उदाहरणं परिशीलयतु अनेन
अनेन सूत्रेण अपदान्ते चत्वादेशः नित्यः अपदान्ते चत्वादेशः नित्यः इति त्याग् योगः स्याति
त्यग्योगः स्यति
त्यग् त्यग्योगः स्यति खरि च प्रसक्तिः अस्ति गकारस्थाने प्रथमसदस्य ककारः त्यक् योगः स्यति आदेशयोः इत्यनेन षत्वं शक्ष्यति
तत्र चिन्ता मास्तु तर्हि प्रथमभागः अवगतः खलु त्यग् योगः स्यति लृट्लकारे पठिष्यति करिष्यति तादृशप्रत्ययः स्यति इति तर्हि तत्र किम् अभवत् स इति खर् प्रत्याहारे अस्ति वा स्यति इत्यस्य स
खर् प्रत्याहारे अस्ति
हा तर्हि त्यग्योगः स्यति इत्यत्र किं कार्यं भवति
त्यक् योगः स्यति भवति
हा अवगच्छति खलु तत्र गकारस्य स्थाने इत्युक्ते झलः स्थाने चरादेशः गकारस्य प्रथमसदस्यः इति त्यक् योगः स्यति तदनन्तरम् इतोपि एकं सूत्रं कार्यं कृत्वा त्यक्ष्यति इति श्रुतवन्तः स्युः शक्ष्यति त्यक्ष्यति इत्यत्र सर्वत्र एवमेव भवति इति वार्ता अस्तु अग्रे अपि पठतु महोदय अग्रिम उदाहरणं तदा स्पष्टं स्यात्
समासे अपि द्वयोः पदयोः संयोजनेन नूतनसमस्तपदस्य निर्माणे सति अपदान्ते चत्वादेशः नित्यः अस्मद् योगः पुत्रः खरी च प्रसक्तिः दकारस्य स्थाने तकारादेशः अस्मत् पुत्रः पकारः खरी अस्ति
करि अस्ति इति कृत्वा दकारः झल् अस्ति तस्य स्थाने
तकारादेश प्रथमसदस्य तकार
इत्युक्ते चरादेशः. अस्तु समीचीनं. तर्हि तर्हि अत्र स्पष्टतया उक्तमस्ति खरि च अपादान्ते कार्यमस्ति. अपदान्ते एव इत्यस्य कार्यं झलां झषौन्ते पदान्तकार्यम् आसीत् खलु. झलां झष् झषि अपदान्ते तद्वदेव खरि च अपदान्ते कार्यं करोति. अपदान्ते चत्वं कारयति खरि च इति बुद्धं. हा समीचीनमस्ति. इतः अग्रे विद्या भगिनी.
आम् भगिनि, अग्रिमसूत्रं पठामि वा?
वाक्यस्य स्तरे इति
वाक्यस्य स्तरे सन्धिः एव वैकल्पिकः. वाक्यस्तरे सन्धिः वक्तुः इच्छा इति चेत् करीच इत्यनेन चत्वं नित्यम्. वाक्यस्तरे सन्धिः वैकल्पिकः इति अस्ति इत्युक्ते वक्तुः इच्छा.
इत्युक्ते सुहृद् पठति इत्यत्र सुहृद् इति नाम पदमस्ति खलु. सुबन्तं सुबन्तं पठति इति
क्रियापदं.
तर्हि अत्र कीदृशी स्थितिः अस्ति?
अत्र करीच कार्यं करोति सुहृत् पठति.
तत्र अजय् महोदयेन उदाहरणद्वयं यद् पठितं तत्र अपदान्ते कार्यं खलु. त्यग्योगः स्यति अस्मत्पुत्रः समासे जाते तत्रापि अपदान्तकार्यम् इति. अत्र सुहृद् इति पदान्ते दकारः अस्ति खलु. अत्र किम् उक्तम्? पदान्ते अपदान्ते इत्युक्ते अत्र वाक्यमस्ति सुहृत् पठति इति वाक्यमस्ति. वाक्यस्तरे सन्धिः सर्वदा कर्तव्यः इति नियमः नास्ति खलु.
समासे एव सन्धिः नित्यम्.
तर्हि अत्र किम् उक्तम्?
यदि वयं सन्धि कर्तुम् इच्छामः तदा करीच इत्यनेन चत्वं नित्यं भवति इति.
हा सत्यं समीचीनम् इति अस्ति. तर्हि यदि सन्धिः भवतु इति वक्तुम् इच्छा अस्ति चेत् पुनः खरीच इत्यनेन एव कार्यं करोति. तर्हि मया यदुक्तं तत् प्रायः किञ्चित् परिष्कारः अपेक्षितः. खरीच पदान्ते अपि कार्यं करोति खलु. सुहृद्योगः पठति.
किमर्थम् इत्युक्ते सूत्रे न दत्तं पदान्ते वा अपदान्ते वा इति न दत्तम् अतः वा?
हा 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 इत्येव. पदस्य अधिकारे तु नास्ति एतत् सूत्रम्. झलां झषौन्ते पश्यति चेत् पदस्य इत्यस्य अधिकारे अस्ति इत्युक्ते पदान्तकार्यम् एव इति. परन्तु खरीचा तथा नास्ति. पदान्ते न पदान्ते अपदान्ते कार्यं कुर्यात्. अस्तु इति खरीचा.
एकः प्रश्नः अस्ति अत्र सुहृद् यथा अस्ति तत् तत्पूर्वं सुहृत् आसीत् वा? तत् झलां झषौन्ते तत् सुहृद् भवति तदनन्तरं खरीच कार्यं करोति एवम् एवं वा?
प्रातिपदिकं किमस्ति महोदय? सुहृदेव अस्ति खलु दकारान्तप्रातिपदिकं. तर्हि प्रायः तस्य निर्माणसमये सुहृत् अपि च सुहृद् इति प्रथमाविभक्त्यां रूपद्वयमपि भवितुमर्हति. झलां झषौन्ते इत्यनेन सुहृद् इति स्यात्. यदि सुहृद् हा तर्हि अस्मिन् सन्दर्भे झलां झषौन्ते इत्यनेन एव सुहृद् इति स्यात्. यतोहि तदनन्तरं पठति इति अस्ति तर्हि वावसाने कार्यं न कुर्यात् इति. अस्तु विद्या भगिनी अधुना वाक्यस्य अन्ते इति.
वाक्यस्य अन्ते परन्तु स्थितिः भिन्ना. तत्र च भिन्नसूत्रेण चर्त्वं विधीयते. वाक्यस्य अन्ते इत्युक्ते अवसानावस्थायाम् अत्र भिन्नसूत्रं कार्यं करोति. तत्तु वा अवसाने इति सूत्रम् अस्ति. सूत्रं पठामि वा?
सूत्रं पठतु.
वा अवसाने. अवसाने जलः विकल्पेन चर् आदेशो भवति. अनेन अवसानावस्थायां विकल्पेन जष्त्वं चर्त्वं वा अव्ययपदम् अवसाने सप्तम्यन्तं द्विपदमिदं सूत्रं जलां जश्चषि इत्यस्मात् जलाम् इत्यस्य अनुवृत्तिः अभ्यासे चर्च इत्यस्मात् चर् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अवसाने जलां चरो वा अवसाने इति सूत्रं वदति अवसान अवस्थायाम् इत्युक्ते अन्ते पदस्य अन्ते अन्य किमपि नास्ति तत्र जलः
अस्तु अग्रिमसूत्रमपि पठतु विरामोऽवसान
विरामो अवसानं वर्णानाम् अभावः अवसानसंज्ञकः विरामः प्रथमान्तम् अवसानं प्रथमान्तं द्विपदमिदं सूत्रं स्वयं सम्पूर्णं विरामः अवसानम् इत्युक्ते वर्णानाम् अभावः विरामः इति अस्ति एतत् संज्ञासूत्रमस्ति
सत्यं समीचीनं तर्हि
अवसान अवस्थायां विराम अवस्थायां जलः स्थाने विकल्पेन चर् आदेशः भवति यत्र चर् विकल्पेन भवति अपक्षे जष्त्वमपि भवति
हा समीचीनम् इत्येव अस्ति अस्तु वा अवसाने अग्रिमवाक्यं पठतु वदनावसरे
वदनावसरे लेखनावसरे च अग्रे कोऽपि शब्दः एव नास्ति चेत् अवसानम् इत्युच्यते वाक्यस्य अन्ते पूर्णविरामः भवति अतः तत्र अवसानसंज्ञा भवति तदर्थं संज्ञासूत्रम्
एतत् संज्ञासूत्रं भवती पठितवती अपि च यत्र अवसानावस्था अस्ति तत्र वा अवसाने इत्यनेन विकल्पेन चर्त्वम् इति अस्ति अस्तु समीचीनं तर्हि सुब्रह्मण्यमहोदय तर्हि अग्रे उदाहरणानि परिशीलयति वा कथं कार्यं भवति इति यथा
आं भगिनि मञ्जूषायां निर्दिष्टेषु पदेषु
तत्र करपत्रे वा उदाहरणानि अस्ति
करपत्रे यथा अस्ति विद्युत् अस्मिन् वाक्ये विद्युत् इति पदम् अस्ति पदान्ते तकारो विद्यते अतः जलां जशोन्ते इत्यनेन नित्यं दकारादेशो भवति विद्युत् जलां जशोन्ते विद्युत् अधुना अस्मिन्नेव वाक्ये विद्युत् शब्दः वाक्यस्य अन्ते अस्ति ततः अग्रे कोऽपि शब्दः नास्ति इति कृत्वा विरामोऽवसानम् इत्यनेन अवसानसंज्ञा तदर्थञ्च वावसाने इत्यनेन विकल्पेन चत्वादेशः भवति विद्युत् तकारः पदान्ते जलां जशोन्ते इत्यनेन नित्यं जष्ट्वादेशः विद्युत् दकारः अवसाने वावसाने इत्यनेन विकल्पेन चत्वादेशः विद्युत् अथवा विद्युत् अत्र इदानीमत्र वावसाने इत्यस्य उदाहरणमस्ति इति एतत् अस्ति विद्युत् इति वाक्यमस्ति तस्मिन् वाक्ये तु विद्युत् पदमस्ति अतः पदान्ते यः तकारः अस्ति तकारः झल्वर्णः अतः झलां जशोन्ते इत्यनेन वर्गीयतृतीयव्यञ्जनम् आदेशः भवति अतः विद्युत् इति भवति परन्तु तदे अस्मिन्नेव उदाहरणे अस्ति विद्युत् इत्यस्य वाक्यस्य अन्ते विद्युत् अस्ति अतः अत्र यद्यपि जलां जशोन्ते इति प्रथमं कार्यं करोति तथापि अत्र वावसाने इत्यनेन विकल्पेन चर्त्वमपि भवति इत्युक्ते विद्युत् अस्ति विद्युत् इति अपि विकल्पेन भवति अतः रूपद्वयम् अस्ति विद्युत् अथवा अस्ति विद्युत्
समीचीनमस्ति इति एव वार्ता तत्र जलां जशोन्ते इत्यनेन नित्यं दकारादेशः राजेन्द्रमहोदय भवान् पृष्टवान् खलु सुहृद् इति तदपि तत्रापि तथैव नित्यत्वेन जलां जशोन्ते इत्यनेन सुहृद् इति भवति खलु यदि पठति सुहृद् इति वाक्यमासीत् इति चिन्तयतु तदा किं स्यात्
तदा पठति सुहृत् अथवा पठति सुहृत् विकल्पेन खरि च सूत्रं कार्यं करोति.
न न न खरि च न, इदानीं किं पठितम्?
विराम वा अवसाने वा अवसाने अवस्थायां विकल्पेन भवति
इति अस्ति. अस्तु, तर्हि अवसानावस्थायां विकल्पेन वा अवसाने इत्यनेन चर्त्वम्, अन्यत्र चर्त्वसन्धिः विधीयते खरी च इति सूत्रेण इति अस्ति. अस्तु, अधुना उदाहरणानि पश्येम पुस्तकात्. नूतनतया केचन सन्ति वा? के के आगतवन्तः? नामानि वदन्तु कृपया.
सुमित्रा अस्मि भगिनि.
नमस्कारः भगिनि. अन्यः कोऽपि अस्ति वा यस्य नाम मम पार्श्वे नास्ति?
भगिनी रामप्रिया, अहं मध्ये गत्वा पुनः आगच्छ.
हा हा, अस्तु. तर्हि सुमित्रा भगिनी, भवती एव पठतु. तत्र पञ्चत्रिंशत्तमे पुटे मञ्जूषायाम् इति अस्ति.
कुत्र अस्ति भगिनी, कृपया सूचयतु.
चर्त्वसन्धिः इत्यस्मिन् भागे.
आम्, चर्त्वसन्धिः
तत्र अग्रिमे पुटे पञ्चत्रिंशत्तमे पुटे मञ्जुषायां निर्दिष्टेषु पदेषु इति पश्यति वा?
प्रथमम् अस्ति सम्पत् योगः, सम्पत् योगः पुत्रः.
सत्यं, सम्पद् योगः पुत्रः. तत्र किम् अभवत्? सुमित्रा भगिनी,
एकनिमिषं भगिनि. कथा इति न स्मरामि.
सम्पद् योगः पुत्रः इत्यत्र पकारः अस्ति खलु, द्वितीयशब्दस्य आदौ पकारः खरि अस्ति, खर्वर्णः खलु. अतः दकारस्य स्थाने तस्य वर्गस्य प्रथमसदस्यः आदेशः रूपेण आगच्छति, सम्पत् पुत्रः इति खलु. इत्येव चर्त्वसन्धिः. चर्त्वसन्धिः इत्युक्ते चरादेशः, चर् प्रत्याहारे प्रथमसदस्याः सन्ति वर्गस्य खलु. अपि च सम्पद् इत्यस्मात् परे खर् प्रत्याहारे कोऽपि वर्णः भवतु. खर् इत्युक्ते प्रथमः द्वितीयः सदस्यः वर्गस्य वर्गीयव्यञ्जनेषु इति कृत्वा सम्पत् पुत्रः. तद्वदेव अन्यानि उदाहरणानि अधुना परिशीलयतु.
षड् योगः
खाद्यानि.
षड् योगः खाद्यानि, षड् खाद्यानि इति डकारः.
डकारस्य स्थाने टकारः खलु,
आदेशः भवति डकारः.
आम्, इति कार्यं सञ्जातमेव. डकारः झल् वर्णः अस्ति, तस्य स्थाने चर् इत्युक्ते प्रथमसदस्यः तस्यैव वर्गस्य. षट् खाद्यानि खरी च इति सूत्रेण आगच्छति एतत्.
कामधु योगः खादति, गकारस्य स्थाने ककारः आदेश. गकारः जश् वर्णे वर्णः,
झल् वर्णः,
क्षम्यतां, झल् वर्णः.
जशपि इति सत्यं, किन्तु खरी च इति सूत्रस्य आधारेण जलः स्थाने चरादेशः.
चरादेशः, अतः प्रथमवर्गः आदेश. का वर्णः?
हा,
आगच्छति गकारस्य स्थाने.
तर्हि
कामधु खादति इति. अनन्तरं पठामि वा?
अग्रे पठतु.
तादृक् योगः कर्म, गकारः इति जल्वर्णः, करिच इत्यनेन गकारः गकारस्य स्थाने ककारः आदेशः भवति. तादृक् कर्म इति विपत् प्रतिकारः विपद् युगः प्रतिकारः विपद् युगः प्रतिकारः इति
तत्रापि दकारस्य स्थाने तकारः इति चरादेशः खलु अग्रे
सम्पद् योगः प्रतीक्षा
विराड् योगः पुरुषः
विराड् योगः पुरुषः डकारः जल् वर्णे अस्ति
हा जल् प्रत्याहारे अस्ति
जल् प्रत्याहारे अस्ति अतः डकारस्य स्थाने तकारः आदेशः विराट् पुरुषः इति
समीचीनम् अग्रे
सम्पद् योगः प्रतीक्षा डकारस्य स्थाने तकारः आदेशः भवति सम्पद् प्रतीक्षा सम्पद् प्रतीक्षा तुराषाढ् सर्वः तुराषाढ् योगः सर्वः तुराषाढ् सर्वः डकारस्य स्थाने टकारः आदेशः भवति वाग् योगः केलिः वाक् केलिः गकारस्य स्थाने ककारः आदेशः ऋष्टुभ्योगः त्रिष्टुभ्योगः छन्दः बकारस्य स्थाने पकारः आदेशः त्रिष्टुप् छन्दः
हा बहु समीचीनमस्ति इति चत्वसन्धेः उदाहरणानि आसन् कोऽपि प्रश्नः वा कस्यचित्
भगिनि केलिः इत्युक्ते किं न जानामि शब्दः
स्पर्धा इति चिन्तयामि महोदय इति मम ऊहा अस्ति केलि तथैव स्यात् आं तथैव स्पर्धा प्ले इति अस्ति अस्तु हा अस्तु तर्हि अद्य विस्तृतरूपेण जष्ट्वसन्धिम् अपि च चर्त्वसन्धिं दृष्टवन्तः अवशिष्टे समये किञ्चित् अनुनासिकसन्धेः परिचयं प्राप्नुमः इति चिन्तयामि रामप्रिया भगिनी अग्रे अनुनासिकसन्धिः
आं भगिनि अनुनासिकसन्धिः एतानि उदाहरणानि परिशीलयत ईदृग् योगः मम तत्र ईदृग् इति गकार प्रथमपदस्य अन्ते गकारस्य स्थाने ण्यकारः अनुनासिकवर्णः आदेशः भवति ईदृङ् मम इति तस्य रूपद्वयम् अत्रापि ईदृग् मम इति अपि अन्यरूपं भवति तस्मात् योगः नः तत्र दकारस्य स्थाने नकार आदेशः भवति अनुनासिकवर्णः विकल् तद्रूपं भवति तस्मान्न इति अन्यरूपं भवति तस्माद्न इति
अत्रापि यथा सामान्यं तस्मात् इति अस्ति खलु पदं तस्मात् इति पदं किं जातम्
तस्मात् इति पदं तस्मादिति जलां जशोन्ते इति सूत्रेण दकारः जातं
तकारस्य दकारः अभवत् जलां जशोन्ते इति अधुना तस्माद् योगः न
तत्र अनुनासिकसन्धिः अनुनासिक दकार तवर्गीय अनुनासिकवर्णः आदेशः भवति तस्मान्
कस्य स्थाने आदेशः
दकारस्य स्थाने प्रथम पदस्य अन्तिमवर्णस्य स्थाने
अस्तु समीचीनम् अग्रे
सुहृद् योगः मित्र तत्र तत्रापि दकारस्य स्थाने नकारादेशः अनुनासिकवर्णः सुहृन् मित्ररूप प्रथमरूपं द्वितीयरूपमस्ति सुहृद् मित्र वाग् मूलं तत्रापि घकारस्य प्रथम पदस्य अन्तिमवर्णगकारस्य स्थाने ङ्यकार वाङ् मूलम् अनुनासिक कवर्गीय अनुनासिक आदेशः भवति. वाङ् मूलम् इति प्रथमरूपं, द्वितीयरूपम् अस्ति वाग् मूलम् इति. एतेषु उदाहरणेषु वर्गीयव्यञ्जनेभ्यः परतः अनुनासिकव्यञ्जनम् अस्ति. तत्र वर्गीयव्यञ्जनानां स्थाने तद्वर्गीयः पञ्चमः वर्णः अनुनासिकः विकल्पेन आदेशः सम्पन्नः.
किम् अभवत् अत्र?
प्रथम पदस्य अन्ते स्थितस्य वर्णः अनुनासिकवर्णेन आदेशः भवति. कदा भवति इत्युक्ते द्वितीय पदस्य प्रथमवर्णः यदा अनुनासिकः स्यात्.
हा, समीचीनं. तदा तद्वर्गस्य अनुनासिकादेशः भवति. अपि च आदेशः नित्यः वा?
विकल्पेन एव भवति. द्वितीयरूपं यथावत् तिष्ठति.
सत्यं, समीचीनम्.
ईदृक् मम
तर्हि विकल्पेन अनुनासिकादेशो भवति. कस्य स्थाने इति सूत्रं दृष्ट्वा परिशीलयामः. किन्तु यथा उदाहरणेषु दत्तं, तत्तद्वर्गस्य अनुनासिकव्यञ्जनम् आदेशरूपेण आगच्छति. कदा इति चेत् तस्मात् परे कश्चन अनुनासिकव्यञ्जनम् अस्ति चेत्, किञ्चन अनुनासिकव्यञ्जनम् अस्ति चेत् तदा. अपि च अयं विकल्पेन भवति इति अस्ति. अस्तु, इदमेव कार्यं सूत्ररूपेण किञ्चित् परिशीलयिष्यामः. राजेन्द्रमहोदय सूत्रं पठति वा?
आम् आम् भगिनि. यरो नुनासिके नुनासिको वा, अनुनासिके पदे परे, क्षमतां भगिनि, अनुनासिके परे पदान्तस्य यरः अनुनासिको वा स्यात्. स्थाने अन्तरतमः इत्यनेन निर्धारणं क्रियते. कार्यं वैकल्पिकं वैकल्पिकं प्रत्यये परे तु नित्यं. यर् प्रत्याहारे हकारं वर्जयित्वा सर्वे हल् वर्णाः अन्तर्भूताः. यरः षष्ट्यन्तम्, अनुनासिके सप्तमी अन्तम्, अनुनासिकः प्रथमान्तं वा अव्ययपदम्. अनेकपदं सूत्रं पदस्य इत्यस्य अधिकारः तयोर्व्यावचिसंहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रम् अनुनासिके पदान्तस्य यरः अनुनासिकः वा संहितायां. सूत्रं वदति यथा अनुनासिकपरे परे अनुनासिक पदः अस्ति, पदान्तस्य यरः इत्युक्ते सर्वे व्यञ्जनानि तत् अन्तर्भूताः सन्ति, तत् अनुनासिक भवति विकल्पे.
एकनिमिष, यर् इत्युक्ते किम्?
यर् इत्युक्ते क्षम्यतां, सर्वे व्यञ्जनानां समूहः न. यर् इत्युक्ते तत्र शशसोर तत्पर्यन्तं, तत् अन्तर्भूतः नास्ति.
हा, सत्यं. हयवरट् इत्यत्रापि हकारः अस्ति खलु, तद् त्यक्त्वा यकारात् आगच्छति. यर् इत्युक्ते यवरल नियमगणना, ततः शशसर् इति पर्यन्तं. तर्हि अन्तिमसूत्रं माहेश्वरसूत्रेषु हल्, तत्सूत्रमपि त्यक्तम् इति कृत्वा हकारः त्यक्तः. यर् इत्युक्ते सर्वाणि व्यञ्जनानि हल् वर्णं वर्जयित्वा इति.
तत्र
हकारं वर्जयित्वा, क्षम्यतां, सर्वे हल् वर्णाः. अस्तु, सूत्रं किं वदति?
तत् अनुनासिक परे परा अस्ति, पदान्तस्य यरः पदान्ते यरः अस्ति, तत् अनुनासिक भवति तत्र, यथा अस्माभिः दृष्टम् अत्र. परे अनुनासिक वर्णः आगच्छति, तत्र पदान्ते यः कोऽपि वर्णः अस्ति तस्यापि अनुनासिक भवति विकल्पे.
अस्तु, हा, तर्हि सूत्रे विभक्तिक्रमं किञ्चित् परिशीलयतु.
यरः षष्ट्यन्तम् अनुनासिके सप्तमी अन्तम् अनुनासिकः प्रथमान्तं वा अव्ययपदम् अनेकपदं सूत्रं
तर्हि तस्य अर्थः कः
आं तस्य अर्थः यरः स्थाने षष्ठी अन्तं तत्र स्थाने तस्य स्थाने अनुनासिकसप्तमी अन्तं तत् पूर्वकार्यम्
अनुनासिके सप्तम्यन्तम्
सप्तमी अन्तं तत् पूर्वकार्यम् आम् अस्ति अनुनासिकः प्रथमान्तम् आदेशः तत्र भवति विकल्पेन वा अस्ति तत्र विकल्पेन अनुनासिक तत्र यत्किमपि यरवर्णः तत्र अन्ते अस्ति पदस्य अन्ते अस्ति तस्य स्थाने अनुनासिककार्यं भवति
यर् इति स्थानि तत्र षष्ट्यन्तम् इत्युक्ते स्थानि तस्य स्थाने यरः स्थाने अनुनासिकादेशः भवति अनुनासिकः प्रथमान्तं कदा अनुनासिके परे इति सूत्रस्य अर्थः अस्तु अग्रे पठतु महोदय
तस्मात् योग न तस्मान्न अपक्षे तस्माद् न जलां जशोन्ते इत्यनेन यथा अत्र तु सूत्रस्य कार्यं तु विकल्पेन भवति तत् तस्मात् योग न तकारः अस्ति तकार अनन्तरं अनुनासिकवर्णः आगच्छति तत् कारणात् तत् तकारः यर्व प्रत्याहारे अन्तर्भूतः अस्ति अन्यतमवर्णः तत् तकारस्थाने नकार आदेशः भवति अपक्षे तत्र तथैव तिष्ठति तत्र तकारस्य नकारः न जातः तत् विकल्पेन सुहृत् योगमित्रम् अत्रापि दकारः यर्व प्रत्याहारे अन्तर्भूतः वर्णः अस्ति कश्चन वर्णः अस्ति तदनन्तरं अनुनासिकवर्णः आगच्छति मकारः तद् अनुसृत्य तत् दकारस्य नकारः तस्मिन् वर्गे नकारः अनुनासिकवर्णः आगच्छति तत् सुहृन् मित्रं भवति अथवा विकल्पेन सुहृद् मित्रं तिष्ठति तत्
समीचीनं महोदय अग्रे
वाग्योगमूलम् अत्रापि गकारः अस्ति प्रत्याहार अन्तर्भूतः वर्णः अस्ति तदनन्तरं मकारः अनुनासिकवर्णः आगच्छति तत् गकारस्य तत् वर्गे अनुनासिकवर्णः आगच्छति वाङ्मूलं विकल्पेन वाग्मूलं निष्पन्नं भवति
हा सम्यक् अस्तु इति यत्र वैकल्पिकरूपेण अनुनासिकसन्धिः भवति तस्य उदाहरणानि आसन् अग्रे अपि समापयतु महोदय तत्र केषु स्थलेषु नित्यत्वेन भवति इति प्रदर्शितम्
प्रत्यया अनुनासिके परे नित्यं भवति प्रत्यये भाषायां नित्यम् इति वार्तिकेन यत् तत्र यदा तत् प्रत्यया आगच्छति अनन्तरं तत्र तु नित्यं भवति अनुनासिक परिवर्तनं यथा चिद् योगमयं चिन्मयं तत्र नित्यं भवति तत् विकल्पः न अस्ति तत् चिद्मयं न भवितुम् अर्हति तत्र न भवति तत्र प्रत्यया यथा तत् मयं प्रत्यया अस्ति तत् कारणात् तत् नित्यं चिन्मयम् एव भवति तद् योगमात्रं तन्मात्रं तथैव यथा पूर्वम् उदाहरणे आसीत् दकारस्य नित्यं नकारत्वम् आदेशः भवति यथा तत् मात्रं कश्चन प्रत्ययः आगच्छति यत्र कुत्रापि परे प्रत्ययः आगच्छति तत्र नित्यम् अनुनासिककार्यं भवति
सत्यम् इति कृत्वा तन्मात्रं चिन्मयं तन्मात्रम् इत्येव भवति वैकल्पिकरूपं नास्ति चिद्मयम् इति न कदापि भवति चिन्मयम् अपि च तन्मात्रमेव न तु तद् मात्रम् अस्तु इति अनुनासिकसन्धेः विषयः आसीत् तत्र सूत्रमस्ति यरोऽनुनासिकेऽनुनासिको वा इति वैकल्पिकरूपेण कार्यं करोति तर्हि अद्य
अत्र पदान्तः इति नीयति किल
सत्यं पदस्य
प्रत्यय अनुनासिके पदान्तः नीयति वा चिद् तद्
तद् तद् इति पदमेव खलु महोदय
पदं पदं सो सर्वत्र अवश्यं नास्ति किल
सत्यं पदस्य सत्यं सत्यं पदस्य अधिकारः अस्ति तर्हि पदान्ते कार्यं करोति सूत्रं सत्यमेव
अत्र प्रत्यये भाषायां नित्यम् इति वार्तिकमस्ति तद्वार्तिकं केवलम् अत्र कार्यं करोति वा अथवा अन्यत्रापि कार्यं कर्तुं शक्नोति वा
न यावदहं जानामि यावदहं चिन्तयामि वार्तिकानि सूत्रसम्बद्धानि स्युः इति चिन्तयामि तर्हि एतत् सूत्रसम्बद्धमेव अस्ति इति भाति
अस्तु धन्यवादः
अस्तु तर्हि अस्तु तर्हि अद्य जष्ट्वसन्धिः चर्त्वसन्धिः अनुनासिकसन्धेः परिचयः अभवत् कृपया पुनः अभ्यासान् परिशीलयन्तु अपि च शुक्रवासरे अस्य वर्गः अपि अस्ति पुनः अभ्यासार्थम् अस्तु कोऽपि प्रश्नः वा नो चेत् विरमामः धन्यवादः
अस्तु भगिनि धन्यवादः
धन्यवादः
धन्यवादः भगिनि